इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी पुनः दृढीकृतवान् यत् भाजपा नेतृत्वे एनडीए प्रशासनं कृषकाणां कल्याणाय समर्पितः अस्ति। तेषाम् आयव्ययं वर्धयितुं देशस्य कृषिक्षेत्राणाम् आधुनिकीकरणाय च उपक्रमान् प्राधान्यम् अददात्। गुवाहाटीनगरे जनसभां सम्बोधयन् सम्पूर्णे देशे 32.9 कोट्यधिकेभ्यः कृषकेभ्यः पीएम किसान योजनायाः 22वां देयराशेः विमोचनानन्तरं कार्यक्रमं सम्बोधयन् श्रीमोदिना उक्तं यत् गत 11 वर्षेष् भाजपा नेतृत्वे प्रशासनेन कृषकाणाम् आयं वर्धयितुं नैके उपायाः कृताः सन्ति।
पीएम किसान सम्मान निधि के तहत 18,000 करोड़ रुपए से अधिक की राशि हमारे करोड़ों अन्नदाताओं के खातों में भेजी गई है। ये योजना वाकई अद्भुत है। एक क्लिक से करोड़ों किसानों के बैंक खाते में सीधे पैसा जमा होता है। दुनिया के विकसित देशों में भी ऐसा संभव नहीं है।
असम यात्रायाः द्वितीये दिने प्रधानमन्त्री अद्य सिलचर नगरं गत्वा प्रायः 23,000 कोटिरूप्यकाणां विविध परियोजनानां शिलान्यासं लोकार्पणं च करिष्यति। अद्यापराह्ने प्रधानमन्त्री कोलकाता नगरमागत्य प्रायः 18,500 कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। सः प्रायः 17,000 कोटिरूप्यकाणां भारतीय राष्ट्रिय राजमार्ग प्राधिकरणस्य राजमार्ग परियोजनानां उद्घाटनं करिष्यति। प्रमुख नौकाश्रय मूल सौकर्याणां शिलान्यासं च विधास्यति। लोकसभायां 25,000-26,000 वर्षयोः अनुपूरक अनुदानं स्वीकृतम्। अस्यान्तर्गतं सर्वकारेण 81,000-20,000 कोटिरूप्यकाणां स्थूल अतिरिक्त व्ययं याचितम्। अस्य अतिरिक्त व्ययस्य अनुमतिः मुख्यतया उर्वरकस्य, खाद्य अनुदानस्य, रक्षा सेवायाः च उपरि अधिकव्ययं पूरयितुं भविष्यति। लोकसभायां विनियोग विधेयकं 26,000 अपि स्वीकृतम्। भारते ईरान देशस्य राजदूतः मोहम्मद फतली इत्येषः सूचितवान् यत् भारतं शीघ्रमेव होर्मुज जलसन्धिना सुरक्षित मार्गं प्राप्तुं शक्नोति इति। ह्यः नवदिल्ल्यां प्रसारमाध्यमेन सह वार्तालापं कुर्वन् राजदूतः फतली अवदत् यत् भारतं ईरान देशस्य मित्रमस्ति। श्रीफतली अस्मिन् विषये आसां प्रकटितवान् यत् ईरान देशः भारतीयानां नौकायानानि गन्तुम् अनुमन्यते। अत्रान्तरे केन्द्रीय पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य संयुक्त सचिवः सुजाता शर्मा इत्येषा अवोचत् यत् भारतं पेट्रोल डीजल इत्येतयोः उत्पादने आत्मनिर्भरम् अस्ति इति। विकसित भारत युव सम्पर्क कार्यक्रमः राष्ट्रिय राजधान्यां बहुविध शैक्षिक संस्थासु 15,500-तोप्यधिकान् छात्रान् नियोजितवान्। युव कार्य क्रीडा मन्त्रालय यः अवदत् यत् संवादात्मक सत्राणि राष्ट्र निर्माणस्य युव सहभागित्वस्य विषये विकसित भारत एट 2047 इत्यस्य दूरदृष्टेः विषये च केन्द्रितानि आसन्। युवसंगम इत्यस्य षष्ठं चरणस्य कृते पञ्जीकरणम् अधुना उद्घाटितमस्ति। शिक्षामन्त्रालयः एक भारत श्रेष्ठ भारत इत्यस्यान्तर्गतम् अस्मिन् उपक्रमे भागग्रहणाय आदेशात् यूनः आमन्त्रयति। पञ्जीकरणस्यान्तिमातिथिः अस्यैव मासस्य 18 दिनांकः अस्ति। ebsb.aicteindia.org अन्तर्जालपटले पञ्जीकरणं कर्तुं शक्यते। महिला हॉकी क्रीडायां हैदराबाद नगरे इटली देशम् 1-0 इत्यनेन अंकेन पराजित्य भारतं 26,000-20,000 तमवर्षस्य FIH हॉकी विश्वकप क्वालिफायर इत्यस्य निर्णायक स्पर्धायां प्रविष्टम्। भारतस्य मनीषा चौहान इत्येषा 44वें निमेषे विजयी गोलं कृतवती। सलीमा टेटे इत्यस्याः नेतृत्वे भारतमद्य सायं 7:30 अन्तिमक्रीडायां इंग्लैण्डदलं सम्मुखीकरिष्यति इति वार्ताः।